पदारविन्दमधुपः श्रीमद्भवौषाधिपः सच्चिशोडुगणोडुपश्रितजगत् गीर्वाणसत्पादपः अत्यर्थं मनसा कृताच्युतजपः पापान्धकारात्तपः
श्रीमत्सद्गुरुराघवेन्द्रयतिरात् कुर्यात् ध्रुवं मङ्गलम्
कर्मन्दीन्द्रसुधीन्द्रसद्गुरु कराम्भोजोद्भवा सन्ततम् प्राज्ञज्ञानवशीकृता किल जगत् वास्तव्यलक्ष्मीधवः सच्छास्त्रातिविदूषकाखिल मृषावादीवकण्ठीरवः
श्रीमत्सद्गुरुराघवेन्द्रयतिरा कुर्यात् ध्रुवं मङ्गलम्
सालङ्कारककाव्यनाटककला काणादपातञ्जल त्रय्यर्थस्मृतिजैमिनीय कविता सङ्गीतपारङ्गतः विप्रक्षत्रविडङ्घ्रिजातमुखरा नेकप्रजा सेवितः
श्रीमत्सद्गुरुराघवेन्द्रयतिरा कुर्यात् ध्रुवं मङ्गलम्
रङ्गोत्तुङ्गतरङ्गमङ्गलकर श्रीतुङ्गभद्रातटे प्रत्यर्थद्विजपुङ्गवालयलसन् मन्त्रालय केपुरे नवेन्द्रोपलनीलभव्यकरसत् वृन्दावनान्तर्गतः
श्रीमत्सद्गुरुराघवेन्द्रयतिरा कुर्यात् ध्रुवं मङ्गलम्
विद्वद्राजशिरःकिरीटखचिता तर्क्योरुरक्तप्रभा रागाघौवः पादुकद्वयचरः पद्माक्षमालाधरः भास्वदण्डकमण्डलोज्ज्वलकरः रक्ताम्बराडम्बरः
श्रीमत्सद्गुरुराघवेन्द्रयतिरा कुर्यात् ध्रुवं मङ्गलम्
यद्वृन्दावनसप्रदक्षिण नमस्काराभिषेकस्तुति ध्यानाराधनमृद्विलेपनमुखा नेकोपचारान् सदा कारङ्कारमभिप्रयान्ति चतुरो लोकाः पुमर्थान् सदा
श्रीमत्सद्गुरुराघवेन्द्रयतिरा कुर्यात् ध्रुवं मङ्गलम्
वेदव्यासमुनीशमध्वयतिरात् टीकार्यवाक्यामृतम् ज्ञात्वा द्वैतमतं हलाहलसमं त्यक्त्वा समाख्यातये सङ्ख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यामुदा
श्रीमत्सद्गुरुराघवेन्द्रयतिरा कुर्यात् ध्रुवं मङ्गलम्
श्रीमद्वैष्णवलोकजालकगुरुः श्रीमत्परिव्राट्भरुः शास्त्रे देवगुरुः श्रितावरतरुः प्रत्युहगोत्रस्वरुः चेतोतीतशिरुः तथा जितवरुः सत्सौख्यसम्पत्करुः श्रीमत्सद्गुरुराघवेन्द्रयतिरात् कुर्या ध्रुवं मङ्गलम् यः सन्ध्यास्वनिशं गुरोर्वतिपतेः सन्मङ्गलस्याष्टकम् सद्यः पापहरं त्वसेवि विदुषां भक्तैव वाभाषितम् भक्त्या व्यक्ति सुसंपदं शुभपदं दीर्घायुरारोग्यकम्
कीर्तिं पुत्रकलत्र बान्धवसुरं मूर्तिः प्रयाति ध्रुवम्
श्रीराघवेन्द्राय नमः ॐ श्रीराघवेन्द्राय नमः